इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः रूपलाल शर्मा। आदौ मुख्य वार्ताः। प्रधानमंत्री श्री नरेन्द्र मोदी अद्य गुजरातस्य आदिवासी बहुल नर्मदा जनपदस्य डेडियापाड़ा नगरे नवसप्तति शत कोट्याधिक रूप्यकैः निर्मीयमाणानां परियोजनानां उद्घाटनं शिलान्यासं च अकरोत्। राष्ट्रमध्ये जनजातीय गौरव दिवसं आचरति। अनेन उत्सवेन देशस्य प्रगतौ जनजातीय समुदायस्य योगदानं संस्मर्यते। ह्यः गतरात्रौ जम्मू काश्मीरस्य नौगाम आरक्षिस्थानके संजाते विस्फोटे नवजनाः मृत्युम् उपगताः, द्वात्रिंशच्च व्रणिताः संजाताः। शरसन्धान स्पर्धायाम् अंकिता भकतः भारतस्य प्रथमा महिला पारम्परिक शरसन्धात्री संजाता। अपि च क्रीडावार्तायाम् कोलकातायाः ईडन गार्डन क्रीडाङ्गणे दक्षिणाफ्रीका दलं भारतं विरुध्य प्रथम निकष क्रिकेट प्रतिस्पर्धायाः द्वितीय दिने द्वितीय चक्रे सप्त क्रीडकाणां हानौ त्रिनवति धावनांकान समर्ज्य क्रीडति। अथ वार्ताः विस्तरेण। प्रधानमंत्री श्री नरेन्द्र मोदी अद्य मध्याह्ने गुजरातस्य आदिवासी बहुल नर्मदा जनपदस्य डेडियापाड़ा नगरे नवसप्तति शत कोट्याधिक रूप्यकैः निर्मीयमाणानां परियोजनानां उद्घाटनं शिलान्यासं च अकरोत्। एताः परियोजनाः आधारभूत संरचनायाः स्वास्थ्य सेवानां च दृढीकरणार्थं वर्तन्ते, यासां माध्यमेन आदिवासी सशक्तिकरणस्य विषये विशेषतः बलाघातः क्रियते। एतासां परियोजनानां शिलान्यासः जनजातीय गौरव दिवसावसरे कृतः, तत्र च विशिष्टस्य आदिवासी नेतुः स्वतंत्रता सेनानिनः च भगवतः बिरसा मुंडा वर्यस्य सार्धैकशत जन्म जयन्त्योत्सवे क्रियते। उल्लेखनीयम् अस्ति यत् प्रधानमंत्री श्री नरेन्द्र मोदी भगवतः बिरसा मुंडा वर्यस्य जयन्त्यावसरे आयोजितां सभां संबोधयन् उपयुक्त तथ्यानि प्राकटयत्। श्री मोदी इदमपि प्रोक्तवान् यत् जनजातीय गौरवं सहस्राधिकवर्षेभ्यः भारतीय चेतनायाः अभिन्नाङ्गत्वेन वर्तते, आदिवासी समाजस्य च स्वतंत्रता संग्रामे महत्वपूर्णं योगदानं न कदापि विस्मर्तुं शक्यते।
आज भगवान बिरसा मुंडा की 150वीं जयंती के इस भव्य आयोजन के साथ हम भारत पर्व की पूर्णता के साक्षी बन रहे हैं। मैं इस पावन अवसर पर भगवान बिरसा मुंडा को प्रणाम करता हूँ।
इतः पूर्वम प्रधानमंत्री श्री नरेन्द्र मोदी मुंबई अहमदाबाद हाई स्पीड रेल कॉरिडोर इत्यस्य प्रगतेः समीक्षणार्थं गुजरात राज्यस्य सूरते निर्माणाधीन बुलेट रेल यान स्थानकस्य भ्रमणम् अकरोत्। श्रीमोदिना तत्रत्याधिकारिभिः सह अपि वार्तालापः कृतः, अथ च कार्याणां समीक्षा विहिता। इदं हि विशिष्ट रेलवे कॉरिडोर साबरमती अहमदाबाद आनंद बडोदरा भरूच सूरत बिलिमोरा वापी बोईसर विरार ठाणे मुंबई सहितानि प्रमुख नगराणि परस्परं संयोजयिष्यति। इदं च कार्यं भारतीय परिवहनस्य आधारभूत संरचनार्थं विशिष्ट परिवर्तनकारी पदक्रमत्वेन वर्तते। यदा हि विशिष्ट बुलेट रेल मार्गः कार्यारम्भं करिष्यति तदा मुंबई महानगरं अहमदाबादं चान्तरा गमनकालं होराद्वयं यावत् न्यूनी भविष्यति। अनया परियोजनया वाणिज्य पर्यटन आर्थिक गतिविधयाश्चापि वर्धिष्यन्ते, अथ च क्षेत्रीय विकासोऽपि द्रुतगत्या भविष्यति। अवधेयं यत् श्रीमोदिना सागवारा तालुकायाः देवमोगरा ग्रामे आदिवासी जनसमुदायस्य कुलदेव्याः पंडोरी मातृमन्दिरे पूजनम् अर्चनं चापि कृतम्। राष्ट्रमध्ये जनजातीय गौरव दिवसं आचरति। अयं हि दिवसः स्वतंत्रता सेनानिनः आदिवासी नेतुः च भगवतः बिरसा मुंडा वर्यस्य सार्धैकशत जयन्त्या उपलक्ष्य आचर्यते। केन्द्र सर्वकारः अमूम दिवसम् आदिवासीनाम् इतिहासस्य पुनर्जीवनार्थम् अथ च एतस्य महत्त्वं स्वीकुर्वन् नवम्बर मासस्य 15 दिनांके जनजातीय गौरव दिवस रूपेण आचरति। नैक वर्षेभ्यः अयम् उत्सवः जनजातीय गौरव सप्ताहत्वेन आयोज्यते स्म। अयम् हि उत्सवः विभिन्नेषु मन्त्रालयेषु राज्येषु च सांस्कृतिक कार्यक्रमैः विविध शैक्षिक गतिविधि पुरस्सरं च आचर्यते। एतैः कार्यक्रमैः वयम् आदिवासी नायकानां न्यासं रिक्थं च सजीवं कुर्मः। कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशेऽपि उपलब्धो भविष्यति। गृहमन्त्री अमितशाह अद्य भगवतः बिरसामुण्डावर्यस्य सार्धैकशत जयन्त्यवसरे तस्मै पुष्पाञ्जलिम् अर्पितवान्। सामाजिकसूचनातन्त्रेण श्रीशाहेन प्रोक्तं यत् बिरसामुण्डा न केवलं जनजातीयसमाजस्य अपि तु सम्पूर्णदेशस्य गौरवास्पदं वर्तते। गृहमन्त्रेण कथितं यत् आदेशमद्य जनजातीय गौरवदिवसः आचर्यते। राष्ट्रस्वाधीनतान्दोलनाय मातृभूमेः च रक्षणार्थं तस्य अखण्डसङ्कल्पस्य कृते सः प्रणम्यते। गतरात्रौ जम्मू काश्मीरस्य नौगाम आरक्षी स्थानके संजाते विस्फोटे नवजनाः मृत्युमुपगताः। जम्मू काश्मीरस्य आरक्षी प्रमुख नलिन प्रभातः प्रोक्तवान् यत् मृतकेषु राज्यस्य अन्वेषण संस्थायाः एकः कार्मिकः, सघन विज्ञान प्रयोगशाला दलस्य त्रयः कर्मचारिणः, द्वौ अपराध दृश्याङ्कनकारौ, न्यायाधीश दले समाविष्टौ द्वौ राजस्व अधिकारिणौ समेत्य एकः सौचिकः सम्मिलितो आसीत्। नवदेहल्यां वार्ताहरान् सम्बोधयन् जम्मू काश्मीर विभागस्य संयुक्त सचिवः प्रशांत लोखण्डे प्रोक्तवान् यत् एकस्य आतंकिनः घटनायाः अन्वेषणावधौ विस्फोटोऽयं सञ्जातः। सः अवदत् यत् विस्फोटक पदार्थाः आरक्षि स्थानकस्य मुक्तक्षेत्रे सुरक्षितरूपेण संस्थापिताः आसन्, अपि च सघन न्यायिक परीक्षायै संसाधिताः आसन्। श्रीलोखण्डे अवदत् यत् आरक्षि स्थानक भवनं समेत्य परितः कानिचन भवनानि क्षतिग्रस्तानि जातानि। सः अवदत् यत् दुर्घटनायाः कारणानाम् अन्वेषणं प्रचलति। बिहार भाजपाध्यक्षः दिलीप जायसवालः वदत् यत् विधानसभा निर्वाचने एनडीए दलस्य प्रचण्ड जयानन्तरं दलीयं केन्द्रीय नेतृत्वं शीघ्रमेव सर्वकारस्य संघटनम् आश्रित्य सर्वेषु पक्षेषु विचारणां विधाय अन्तिमरूपेण निर्णेष्यति। तेन कथितं यत् आगामी द्वयोः दिनयोः सर्वं निश्चितं भविष्यति, अथ च स्वः दलं बिहारस्य सर्वेषु जनपदेषु मतदातृणाम् आभारम् अभिव्यक्तिकर्तुं धन्यवाद जनसञ्चलनयात्रां करिष्यति। सरसन्धान प्रतिस्पर्धायाम् अंकिता भकतः भारतस्य प्रथमा महिला रिकर्व इत्युक्ते शास्त्राधारित पारम्परिक शस्त्रसन्धात्री सञ्जाता। ढाका मध्ये एशियाई सरसन्धान प्रतिस्पर्धायाम् ओलम्पिक रजत पदक विजेतारं नाम सुहोनं 73 इत्यंकैः पराजित्य वैयक्तिक एशियाई प्रतिस्पर्धा विजेतृत्वेन सा सञ्जाता। तत्र च धीरद बोम्मा देवरा प्रथमः भारतीय पुरुषः सञ्जातः यो हि शास्त्रीय सरसन्धाने वैयक्तिक विजेतृत्वेन रिकार्ड इति पुस्तके स्वीयं नामोल्लेखं कारितवान्। अयं हि अन्तिमचक्रे राहुलाख्यं भारतीय स्पर्धालुं 6-2 इति अन्तरालेन पराजित्य स्वर्णपदकम् अजयत्। अवधेयं यत् साम्प्रतं यावत् जातासु प्रतिस्पर्धासु भारतीय सरसन्धात्रीणाम् अयं सर्वश्रेष्ठं प्रदर्शनं वर्तते। कोलकातायाः ईडन गार्डन क्रीडांगणे दक्षिणाफ्रीका दलं भारतं विरुध्य प्रथम निकष क्रिकेट स्पर्धायाः द्वितीय दिने द्वितीय चक्रे 93 धावनांकान् समर्ज्य 7 क्रीडकानां हानौ आसीत्। तत्र च टेम्बा बबुमा 39 धावनांकेषु कार्विन वाशश्च एक धावनांके क्रीडति स्म। दक्षिणाफ्रीका 63 धावनांके ही अग्रेसरं वर्तते। इतः पूर्वमद्य भारतीय दलं 89% अंकेषु समाप्तिम् अकरोत्। केएल राहुल भारताय 39 इति सर्वाधिक धावनांकान् समर्जत्। वाशिंगटन सुन्दरश्च 39 अंकान् समर्जितवान् इति वार्ताः।